एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय सभायाः गतदिवसीयोपवेशेन एतद् विक्रम वर्षीयं विनियोजन विधेयकं बहुमतेन पारितीकृतं वर्तते। उपवेशे अर्थमन्त्रिणा जनार्दन शर्मणा एतद् वैक्रमाब्दं विनियोजन विधेयकं पारितीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन पारितोऽभवत्। उपवेशेन एतद् विक्रम वर्षीयाणि आर्थिक विधेयकं राष्ट्रिय ऋणोत्थापन विधेयकं ऋणन्यास पञ्चविंश संशोधन विधेयकं च विचार्यन्तामिति विषयकः प्रस्तावो सर्वसम्मत्या स्वीकृतो वर्तते। तत्पूर्वं राष्ट्रियसभायाः उपवेशे एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतानि मन्त्रालयानां विभिन्नानि शीर्षकाणि आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् ह्य उत्तरयन् संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अगदत्। सर्वकारेण सूचना प्रविधिं सुरक्षणेन प्रयुज्य आर्थिक सामाजिक क्षेत्रयोः क्रियाकलापानां सूचना प्रविधि मैत्री विधानात्मकाः कार्यक्रमाः अग्रे सारिताः सन्ति। संचार मन्त्री कार्की अवोचत् सामुदायिक माध्यमिक विद्यालयानां सामुदायिक चिकित्सालयानां च अन्तर सञ्जालस्य न्यूनतम शुल्के प्रतिशतं 50% अनुदानं प्रदास्यते। मन्त्री कार्की अवासत वैयुताङ्कनयुत नेपालस्य अवधारणां सफलीकर्तुं वैयुताङ्कनयुत नेपाल संरचनायाः क्रियान्वयनाय बलं दत्तमस्ति। उपवेशे गृहमन्त्री बालकृष्ण खाण अकथयत् नागरिकता विधेयकं सर्वेषां दलानां सहमत्या अग्रे वर्धाप्यते। मन्त्री खाण नागरिकता विधेयकं बहुदिनानि यावत् संसदि न तिष्ठतु इत्यवधारणा सर्वकारस्य अस्तित्वे भासमाणः तत्कालं नागरिकता प्राप्तये योग्येभ्यो नागरिकेभ्य कोषागारे वित्तीयाभिलेखन सञ्चालनस्य लोकसेवायोगस्य विज्ञापने आवेदन प्रस्तुत्यश्च सौविध्यं नागरिकता विधेयकस्य अपारितीकरण पर्यन्तं तेषां मातृपितॄणां नागरिकतां विलोक्य दातुं प्रक्रिया प्रारब्धास्तीति अज्ञापयत्। अर्थमन्त्री जनार्दन शर्मा आयव्ययकेन प्रस्तुतः दृष्टिकोणः स्पष्टोस्तीति तर्केन अब्रवीत् उत्पादने आदृतम् अर्थतन्त्रं निर्माय उच्चैः सबलार्थिक विकासस्य लक्ष्यं निर्धारितं वर्तते। मन्त्री शर्मा देशे भूमि जलवायु श्रमिकाश्च सन्तोपि एतस्मिन् वर्षे त्रयाणां खर्वाणाम् 58% अब्जानां च रूप्यकाणां कृष्युत्पादनस्य आयातो भवत् इति चर्चयन् अब्रवीत् कृषिक्षेत्रस्य रूपान्तरणम् एतस्य आयव्ययकस्य उद्देश्यं वर्तते। ऊर्जो जलस्रोत सिंचन मन्त्री पम्फा भूषालः सर्वकारेण 20 यूनिट परिमाणस्य विद्युतः उपभोक्तृभ्यो विपन्न नागरिकेभ्यो निःशुल्कं विहितमिति चर्चयन्ति। 52 लक्षाणां ग्राहकाणां मध्ये लक्षाणां 25 ग्राहकैः निःशुल्कं विद्युत् उपभोगः विद्यमानोऽस्तीति अबोधयत्। परराष्ट्रमन्त्री डॉ नारायण खड्का नेपालस्य स्वाधीनतायाः संरक्षण पुरस्सरम् अन्तर्राष्ट्रिय सम्बन्धस्य संस्थापनं राष्ट्रस्य सर्वोपरि हितं विलोक्य परराष्ट्र नीतेः अवलम्बनं च नेपाल सर्वकारस्य नीति रस्तीति उदैरयत। मन्त्री डॉ खड्का नेपालस्य राष्ट्रियहितस्य असंलग्न परराष्ट्र नीतेश्च वैपरीत्येन किमपि रणनीतिक गठबन्धनं नेपालः न प्रविशति सन्तुलित परराष्ट्र नीतौ सर्वकारः दृढोऽस्ति अन्तर्राष्ट्रिय सीमायाः अनुगमनं विधीयते चेति चर्चयन् अकथयत। लिम्पियाधुरा लिपुलेख स्थानयोः विषये भारतेन सह निरन्तरं वार्ता विद्यमाना वर्तते। पेयजल मन्त्री उमाकान्त चौधरी प्रतिगृहं प्रतिधारम् इत्यवधारणायाः क्रियान्वयनाय सबलविकासस्य लक्ष्यप्राप्तये च एमआईएस नामा प्रविधि निर्मितोऽस्तीति ज्ञापितवान्। मन्त्री चौधरी आराष्टं पेयजलं स्वच्छीकरणं च परिचित्य दीर्घकालिक कार्ययोजनां निर्मातुं तथ्याङ्कानां संकलनस्य कार्यं विद्यमानम् अस्तीति च अज्ञापयत्। एवमेव उपवेशे भौतिक पूर्वाधार यातायात मन्त्री रेणुकुमारी यादवः प्रवर्तमानस्य आर्थिक वर्षस्य अवधौ 1000 च किलोमीटर मितस्य मार्गस्य वार्षिक रूपेण प्रबलीकरणस्य लक्ष्यं सद 600 किलोमीटर मितस्य मार्गस्य कार्यं सम्पन्नमिति अवोचत। विगतकालतः सञ्चल्यमानाभ्यो राष्ट्रिय गौरवस्य आयोजनाभ्य आयव्ययकेन प्राथमिकता प्रदत्तास्तीति चर्चयन्ती असौ प्रावोचत् प्रदेशैः विकासस्य पूर्वाधाराणामपि स्पष्ट मापदण्डः निर्मातव्य। राष्ट्रियसभायाः अपरोपवेशः अस्यैव आषाढस्य 17 दिवसे शुक्रवासरे पूर्वाह्नस्य 11 वस्ता। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं नवनियुक्तः चत्वारो मन्त्रिणः ह्यः पदगोपनीयतयोः शपथम् अगृह्णन्। शीतलनिवासवर्तिनी राष्ट्रपतिभवने आयोजिते विशेष समारोहे नेकपा एकीकृत समाजवादी दलस्य पक्षतः नवनियुक्ताः मन्त्रिणः शपथम् गृहीतवन्तः। शपथम् गृह्णत्सु मन्त्रिषु संस्कृति पर्यटन नागरिकोड्डयन मन्त्री जीवन राम श्रेष्ठः, नगरीय विकास मन्त्री मेटमणि चौधरी, स्वास्थ्य जनसंख्या मन्त्री भवानी प्रसाद खापुङ, श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुमारश्च वर्तन्ते। मन्त्रिणां शपथग्रहणानन्तरं शीतल निवासे एव राष्ट्रपतेः भण्डारिणः उपस्थितौ प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य समक्षं नवनियुक्तः स्वास्थ्य जनसंख्या राज्यमन्त्री हीरा चन्द्र केसी च पदगोपनीयतयोः शपथं गृहीतवान् आसीत्। समारोहे उपराष्ट्रपतिः नन्द बहादुर पुन, सभामुख अग्निप्रसाद सापकोटा, मन्त्रीगणः, सांविधानिक निकायानां प्रमुखाश्च उपस्थिताः आसन्। शपथग्रहणमनु नवनियुक्ताः मन्त्रिणः ह्यैव स्वस्व मन्त्रालयं प्राप्य स्वीय पदभारं निरवहन्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः भाषते दलेन अतपरं प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचने ध्यानं केन्द्रीकर्तव्यम्। दलस्य प्रथमं केन्द्रीय परिषदः उपवेशं ह्य काष्ठमण्डपे उद्घाटयन् अध्यक्षो नेपालः अवोचत् दलेन आगामी निर्वाचने अधिकतम सफलतायाः अधिगमनस्य वातावरणं स्रष्टव्यम्। स्थानीयस्तरस्य निर्वाचने एकीकृत समाजवादी दलस्य पक्षतः प्रतिशतं 28 प्रत्याशिन प्रत्याशितायां प्रस्तुतायां सत्यामपि दलं नवलक्ष्याणि मतानि प्राप्तुं सफलं सम्भूतमिति चर्चयन् अध्यक्षो नेपालः प्रतिनिधिसभायाः प्रदेशसभानाञ्च आगामी निर्वाचनाय अधुनातः एव स्वस्व कार्यक्षेत्रे क्रियारताः भवितुं कार्यकर्तॄन् अन्वरुणत्। अध्यक्षो नेपालः दलनिर्माणस्य दशानां मासानाम् अवधौ विभिन्नानाम् अवरोधानां मध्येऽपि देशस्य सर्वेषु प्रदेशेषु जनपदेषु च दलस्य समितयः संघटित सन्ति। शीघ्रमेव सर्वेषु स्थानीयस्तरेषु वडास्तरेषु च समितिः संघटय्य तदनुसारेणैव दलं परिचाल्यते इत्यवोचत्। महामारी रोग नियन्त्रण महाशाखया काष्ठमण्डपोपत्यकायां विसूचिकायाः प्रकोपस्य सम्भावनायाः सत्वात् तत्परावस्थायां स्थातुं चिकित्सालयाः निर्दिष्टाः सन्ति। प्रतिनिधिसभायाः शिक्षा स्वास्थ्य समितेः ह्यसिम प्रासादे उपविष्टे उपवेशे महामारी रोग नियन्त्रण महाशाखायाः निर्देशकः डाक्टर चुमनलाल दासः अधुनावधि नेपाले द्वादशसु जनेषु विसूचिकायाः जीवाणवः दृष्टाः अष्टौ जनाः स्वास्थ्यलाभं प्राप्य गृहं प्रत्यावृत्ताः सन्तीति ज्ञापितवान्। निर्देशकः डाक्टर दासः अवशिष्टानां चतुर्णां जनानां टेकु पाटन बयोदा चिकित्सालयेषु उपचारः विद्यमानोऽस्तीति उपवेशे अज्ञापयत्। कृषि पशुपक्षी विकास मन्त्री महेन्द्र राय यादवः कथयति पशु स्वास्थ्य क्षेत्रस्य जनशक्तिं व्यवस्थितां विधातुं 67-2000 विक्रम वर्षीय पशु स्वास्थ्य पशु सेवा परिषद विधेयकम् अग्रे वर्धितमस्ति। कृषि सहकारी प्राकृतिक स्रोत समितौ विधेयकमेतद् आदित्य यो विहिते सैद्धान्तिक विमर्शने मन्त्री यादवः एवं अभाषत इति समाचाराः।